अतुलित बलधामम् हेमशैलावदेहम् धनुजवनकृशानम् ज्ञानिनामाग्रगण्यम् शकलगुणनिधानम् बानराणामधीशम् रघुपति प्रिय भक्तम् बात जातम् नमामि। सुकोट समुद्र सिखाई जात पवन सुत